रेडियम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। इदानीं वार्ताः। भारतेन कनाडा देशीयम् उच्चायुक्तम् स्टीवर्ट रॉस व्हीलर इत्यमुम् समेत्य कनाडा देशीयाः षड् राजनयिकाः निष्कासिताः। एतेषु उप उच्चायुक्तः पैट्रिक हेबर्ट, प्रथमः सचिवः मैरी कैथरीन, लेन रॉस डेविड पाइटस, एडम जेम्स चुइपका, पाउला ओरेजुला इत्येते राजनयिकाः सम्मिलिताः सन्ति। एते सर्वे अक्टूबर मासस्य एकोनविंशति दिनांकं यावत् भारतदेशात् निर्गमनाय समादिष्टाः। एतेन सह भारतेन कनाडा देशे स्वीय उच्चायुक्तः, अन्ये लक्षिताः स्वीयाः राजनयिकाः अधिकारिणश्च भारते पुनः आगमनाय समादिष्टाः। भारतेन प्रोक्तं यत् स्वीय अधिकारिणां सुरक्षा विषये वर्तमान कनाडा शासनस्य प्रतिबद्धता न विश्वसनीया। संक्षिप्ते घटनाक्रमे गतदिने सायंकाले भारत शासनस्य सचिवेन नवदेहल्यां कनाडा देशीय प्रभारी प्रत्युत्तर प्रदान विषये समाहूतः। अल्जीरिया देशस्य यात्रायाः द्वितीये दिवसे राष्ट्रपति पदासीना द्रौपदी मुर्मुः अल्जीरिया देशीयेन राष्ट्रपतिना अब्देल मजीद तबून इत्यनेन प्रमुखैः नेतृभिः साकं च द्विपक्षीयोपवेशनानि अकारयत्। अपि च अल्जीरिया भारत आर्थिक मञ्चं सम्बोधितवती। अवधेयं यत् राष्ट्रपतिः अल्जीरिया मोरिटेनिया मलावी देशानां यात्रायाः प्रथमे चरणे अल्जीरिया देशस्य राजधान्याम् अस्ति। राष्ट्रपतेः इयं यात्रा अफ्रीकी देशैः सह भारतस्य सम्बन्धान् प्रबलीकर्तुं केन्द्रिता वर्तते। अस्माकं वार्ताहरेण सूचितं यत् राष्ट्रपतिः अद्य अल्जीरिया यात्रायाः तृतीये दिवसे विभिन्नेषु कार्यक्रमेषु भागं ग्रहीष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नवदेहल्याम् अन्ताराष्ट्रिय दूरसञ्चार संघस्य विश्व दूरसञ्चार मानकीकरण सभायाः उद्घाटनं विधास्यति। भारतं प्रथमवारं अस्याः सभायाः आयोजनं करोतीति। श्रीमोदी अत्रावसरे इंडिया मोबाइल कांग्रेस इत्यस्यापि उद्घाटनं विधास्यति। अस्माकं वार्ताहरः सूचितवान् यत् दशदिवसात्मके एतस्मिन् कार्यक्रमे प्रवर्तमान भविष्यकालयोः उपयुज्यमानस्याः प्रौद्योगिक्याः विषये अपि विचार विमर्शो भविष्यति। विंशतिः चतुर्विंशति तमवर्षीयः अर्थशास्त्रपरः नोबेल पुरस्कारः अमेरिका देशीयेभ्यः अर्थशास्त्रिभ्यः डेरोन एस्मोग्लू, साइमन जॉनसन, जेम्स रॉबिन्सन इत्येतेभ्यः अर्थशास्त्रिभ्यः स्वीय अभूतपूर्व शोधकारणेन प्रदास्यते। एतेषु अर्थशास्त्रीषु एस्मोग्लू, जॉनसन इत्युभौ MIT इति संस्थाने कार्यरतौ, अपि च रॉबिन्सन इत्येषः शिकागो विश्वविद्यालये कार्यरतो वर्तते। अन्ते च क्रीडावार्तासु। महिलानां 20x20 विश्वचषक क्रिकेट क्रीडा प्रतियोगितायां गतरात्रौ दुबय्याः अन्ताराष्ट्रिय क्रीडांगणे समायोजिते द्वन्द्वे न्यूजीलैंड देशेन पाकिस्तान दलं 45 धावनांकैः पराजितम्। एतेन सह न्यूजीलैंड दलेन असमूहात् उपनिर्णायक चक्रे स्थानं समधिगतम्। द्वन्द्वे प्रथमं दण्डेन क्रीडयता न्यूजीलैंड दलेन 6 पुरस्सरं 10 धावनांकाः समर्जिताः। प्रत्युत्तरे पाकिस्तान दलस्य पर्यायः 45 धावनांकेष्वेव समाप्तो जातः। एतेन सह न्यूजीलैंड दलं असमूहात् उपनिर्णायक चक्रे स्थानं समधिगतम् इति वार्ताः।